ॐ जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वां नावेव सिंहं दुरितात्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्म फलेषु जुष्टां दुर्गां देवीगं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारध्यानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वाम् पोश्च पृथिवी बहुला न उर्वीं बभातोकायतनयाय शय्योः विश्वानि नो दुर्गः जातवेधः सिन्धुं न धावा दुरितातिपर्षीम् अग्ने अत्रिवन्मनसा घृणानो अस्माकं बोध्यपिता तनूनां पृथनाजितगं सहमानमुग्रमग्निकं पवेम परमत्सदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामध्येव अतिदुरितात्यग्निः प्रत्नोषि कमीट्यो अध्वरेषु सना च हो धानव्यश्च सत्सीं स्वाञ्चाग्ने तनुवं पिप्रय स्वास्मभ्यं च सौभगमाय च स्वां गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्ठमपि संवसानो वैष्णवी लोक इह मादयन्ताम् ॐ घात्याजनाय विद्महे कन्याकुमारी धीमहि तन्नो दुर्गिः प्रचोदयात्